प्रवृत्ते शन्तदा वाक्यम् इदमाहमहीपते सेनयोरुभयोर्मध्ये रथं स्थापय मेच्युत
त्रैलोक्यराजस्य हेतुः किम्।
धार्तराष्ट्रान् का प्रीति स्यात् जनार्दन पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः तस्मान्नार्हा वयं हन्तुन् धार्तराष्ट्रान् स्वबान्धवान् स्वजनौ सुखलोभेन हन्तुं स्वजनमुद्यता यदि माम प्रतीकारं अशस्त्रं शस्त्रपाणय धार्तराष्ट्रारणे हन्यु तन्मे क्षेमतरं भवे एवमुक्त्वार्जुन संखे रथो विसृज्य सशरं चापं शोकसंविघ्नमानसः ॐ तत्सदिति श्रीमद्भगवद्गीता सूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः।